एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रतिनिधि सभायाः ह्यस्तनोपवेशेन सम्प्रत्यैव क्रियान्विताः पञ्च अध्यादेशाः स्वीकृताः वर्तन्ते उपवेशेन एतत् विक्रमवर्षीयाः सुशासन प्रवर्धन सामाजिक सेवा प्रदान सम्बद्धान् कतिचिद् नेपाल अधिनियमान् संशोधयितुं निर्मितः अध्यादेशः आर्थिक कार्यविधि वित्तीयोत्तरदायित्व प्रथम संशोधनाध्यादेशः नैजीकरण प्रथम संशोधनाध्यादेशश्च स्वीकृताः वर्तन्ते एवमेव उपवेशेन आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धान् कतिचिद् नेपाल अधिनियमान् संशोधयितुं निर्मितः अध्यादेशः सहकारी सम्बद्धान् कतिचिद् नेपाल अधिनियमान् संशोधयितुं निर्मितः अध्यादेशश्च सभायाः उपवेशेन स्वीकृतौ स्तः सर्वकारेण विभिन्नेषु षट्सु अध्यादेशेषु आनीतेषु सत्स्वपि भूमि सम्बद्धान् कतिचिद् नेपाल अधिनियमान् संशोधयितुं निर्मितः एतद् विक्रमवर्षीयः अध्यादेशः प्रतिनिधिसभायाः उपवेशे न प्रस्तुतः पारितान् अध्यादेशान् आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः अध्यादेशानामपि संसदि एव पारितीकरणस्य व्यवस्थायां सत्याम् अध्यादेशानाम् आनयनेन सर्वकारेण संसद् वञ्चिता संसदः अपमूल्यं विहितम् इति च कथनं तर्कसंगतं नास्ति इति अभाषत उपवेशेषु शासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् कतिचिद् नेपाल अधिनियमान् संशोधयितुं निर्मितम् अध्यादेशम् आधृत्य विहिते विमर्शने संसार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ सुशासनस्य प्रवर्धनं सर्वेषां राजनैतिक दलानां संयुक्त विषयोऽस्तीत्यतः सहमत्या सहैव अग्रे वर्धनाय बलं प्रादात् एवमेव सहकारी सम्बद्धान् कतिचिद् नेपाल अधिनियमान् संशोधयितुं निर्मितम् अध्यादेशम् आधृत्य उत्थापितान् प्रश्नान् उत्तरयन् भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी सहकारी पीडितानां समस्यानां समाधानाय सर्वकारेण अध्यादेशाः आनीताः सन्तीति अगदत् अध्यादेशानां विपक्षे विद्यमानैः प्रतिपक्षिदलानां सांसदैः अध्यादेशेन उपभोक्तृणाम् अधिकाराणां हितानां च संकोचनं विधीयते सहकारी संशयकर्तृणां वित्तराशेः प्रत्यावर्तनस्य स्पष्टा व्यवस्था न विहिता अस्ति इति कथितमासीत् प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति सभामुखः देवराज घिमिरे ह्यः प्रतिनिधिसभायाः उपवेशे प्रतिपक्षिदलैः आकस्मिक शून्य विशेष समयेषु उत्थापितान् विषयान् संसूचयितुम् आदिष्टवान् प्रतिनिधिसभायाः नियमावल्यां विद्यमानायाः व्यवस्थायाः अनुसारेण सभामुखः घिमिरे सम्बद्ध मन्त्रिणां गभीरेण ध्यानाकर्षणं विहितवान् अस्ति सहैव सभायाम् उत्थापितान् विषयान् ज्ञापयितुमपि सभामुखः घिमिरे सर्वकारम् आदिष्टवान् अस्ति प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रतिपक्षिदलैः नेपाल विद्युत् प्राधिकरणस्य कार्यकारी निर्देशकेन सह पृष्ठस्य स्पष्टीकरणस्य विषये अन्येषु विषयेषु च सभामुखस्य माध्यमेन सभायै ज्ञापनाय अभियाचितम् आसीत् प्रधानमन्त्री केपी शर्मा ओली निगदति सर्वेषां वर्गाणां क्षेत्राणां समुदायानां च समानावसरस्य प्रतिस्पर्धासहितस्य समृद्ध राष्ट्रस्य निर्माणाय सर्वकारः क्रियाशीलो वर्तते मानवाधिकार रक्षकाणां पञ्चमं राष्ट्रिय सम्मेलनं मानवाधिकार गठबन्धनस्य षष्ठमं राष्ट्रिय महाधिवेशनं च पूर्वेद्युः उद्घाटयन् प्रधानमन्त्री ओली भयरहितस्य समाजस्य निर्माणाय सर्वकारः प्रतिबद्धोऽस्ति इति अभाषत प्रधानमन्त्री ओली देशे विपन्नवर्गाणां बालबालिकानां भविष्यं सुनिश्चेतुं सर्वकारेण कार्यं विधीयमानमस्ति इति अगदत् कार्यक्रमे अग्रजपत्रकाराय लेखकाय च भैरवरिशालाय एकलक्ष रूप्यकात्मक राशेः अस्य वर्षस्य केपी शर्मा ओली मानवाधिकार स्वतन्त्रता पुरस्कारः अर्पितः आसीत् विश्व सम्पद सूच्यां सूचीकृते लुम्बिनी क्षेत्रे बौद्ध गुरवः विश्वशान्तये अन्ताराष्ट्रिय समुदायस्य ध्यानाकर्षणं विदधति विश्वसमुदायस्य ध्यानाकर्षणं विधातुं बुद्ध जन्मस्थल्यां लुम्बिन्यां मायादेवी मन्दिर परिसरे अस्यैव फाल्गुन मासस्य विंशा दिवसात् पञ्चविंशं दिवसं यावत् सञ्चल्यमानस्य आध्यात्मिक कार्यक्रमस्य अन्तर्गतं व्यस्तनात् दिवसात् चतुर्थान्तरराष्ट्रिय त्रिपिटक पाठः सञ्चलनस्ति। अखिल नेपाल भिक्षु महासंघस्य आयोजनायां संचल्यमाने चतुर्थ त्रिपिटक वाचन समारोहे नेपाल भारत श्रीलंका कम्बोडिया थाईल्याण्ड चीन कोरिया जापान प्रभृतीनां षोडश देशानां आसन्न 2000 बौद्ध लामा भिक्षूणां सहभागिता वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह लुम्बिनी विकास कोषस्य अध्यक्ष लार्क्या लामा महासंघस्य अध्यक्ष भिक्षु बोधिसेन महास्थवीरश्च दीपं प्रज्वाल्य कार्यक्रमस्य शुभारम्भं विहितवन्तः। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत काष्ठमण्डपस्य मैतीदेवीस्थाने विद्यमानस्य भगवतः श्री गोदा वेणुगोपालस्य नवनिर्मित मन्दिरस्य उद्घाटनं विहितवान् अस्ति। प्रधान न्यायाधीशः राउत ह्य विशेष धार्मिकानुष्ठानस्य मध्ये मन्दिरस्य उद्घाटनं विदधानः। धर्म नैतिकम् आचरणम् उच्चैः विधाय सन्मार्गे अग्रे गन्तुं प्रेरयतीति अभाषत। मन्दिरे अस्यैव फाल्गुन मासस्य षड्विंशं दिवसं यावत् भगवतः गोदा वेणु गोपालस्य प्राणप्रतिष्ठा महासम्प्रोक्षणानुष्ठानञ्च संचलतीति मन्दिरस्य मठाधीशः स्वामी यतीन्द्राचार्यः असूचयत्। नेपालीनां प्रवासनक्षेत्रे सम्प्रति दृष्टानां समस्यानां समन्वयात्मकरूपेण समाधानस्य विषये परराष्ट्र गृह श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणां संयुक्तोपवेशः सम्पन्नोऽस्ति। परराष्ट्र मन्त्रालयस्य अग्रेसरतायां मन्त्री डॉ आरजू राणा देउवा गृहमन्त्री रमेश लेखकः श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी एतेषां मन्त्रालयानां सचिवाश्चेति जनैः सम्मिलिते ह्यस्तनोपवेशे वैदेशिक वृत्त्युपार्जनस्य नेपालस्य श्रमप्रवासनक्षेत्रस्य च अतिरिक्त व्यवस्थितकरणस्य विषये विमृष्टं वर्तते। उपवेशे मन्त्री डॉ राणा वृत्त्युपार्जनस्य अध्ययनस्य अन्येषां व्यवसायानाञ्च कृते नेपालिनः कुत्र कति संख्यायां प्राप्ताः सन्तीति विषयः परराष्ट्र मन्त्रालयाय ज्ञानं न भवति, परं एतेषाम् उद्धारकार्यमेव कर्तव्यमस्तीति अवस्था वर्तते इति असूचयत्। उपवेशे गृहमन्त्री लेखकः चतुष्षष्ट्यधिकद्विसहस्रतम विक्रमवर्षीयः अधिनियमः अथ परं समयसापेक्षं विधाय संशोधनीयः इति परामृष्टवान्। श्रमवृत्तिमन्त्री भण्डारी गृहसम्बद्ध श्रमिकाणां श्रमस्वीकृतिः नवीकरणं कृत्वा व्यावहारिकी विधेयः इति बलं प्रादात्। आधिकारिक प्रमाणपत्राणाम् अप्राप्तेः पश्चात् नियन्त्रणे गृहीत्वा अमेरिका देशेन ह्यः नेपालं प्रत्यावर्तिताः अष्टौ नेपालिनः अतिरिक्त स्पष्टीकरणस्य ग्रहणार्थं ह्यः नेपाल प्रहरिणे अर्पिताः सन्ति। अमेरिका देशस्य आरक्षित विमानात् काष्ठमण्डपस्य त्रिभुवनान्तरराष्ट्रिय विमानस्थलं प्रापिताः एते जनाः अध्यागमन प्रक्रियां प्रपूर्य अतिरिक्त स्पष्टीकरणस्य ग्रहणस्य कृते प्रहरिणे अर्पिताः सन्ति इति विमानस्थलस्य अध्यागमन कार्यालयेन ज्ञापितं वर्तते। एतत्पूर्वम् अमेरिका देशात् सप्तविंशतिर्नेपालिनः प्रत्यावर्तिताः सन्ति। दार्चुला जनपदस्य महाकाली नगरपालिकायाः द्वितीय ओडा क्षेत्रस्य मैखोली स्थाने दुरापन्नायां जीपयानस्य दुर्घटनायां एको जनः मृतोऽस्ति। दुर्घटनायां द्वौ जनौ आहतौ स्तः।